नवमोऽध्यायः फलानां लाभाय सेवकाः वनं गच्छन्तु। अद्य भवने सीदतम् इति पितरौ बालौ अवदतम्। नराः नेतारम् अनुगच्छन्ति। वदनेन वदतु, नयनाभ्यां पश्यतु। पितुः सेवनाय बाला आहारं पचतु। नीता नरान् ग्रामं नयतु। बालौ पित्रोः वादं बोधताम्। आहारस्य खादनाय फलानि पचाव। पित्रे मात्रे च सुन्दरम् अश्वं दर्शय।